इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा श्री नरेन्द्र मोदिना अद्य उत्तर प्रदेशस्य मेरठ जनपदे भाजपा दलस्य लोकसभा निर्वाचन प्रचारस्य आरम्भः कृतः। दिल्ल्याः रामलीला प्रांगणे इंडिया इति विपक्षी दल संघेन आरोपितं यत् केन्द्र प्रशासनेन विपक्षी दलानां पीडनाय संस्थानां दुरुपयोगः क्रियते। राष्ट्रपतिः द्रौपदी मुर्मुः नवदिल्ल्यां पूर्व उप प्रधानमन्त्रिणं एलके अडवाणी वर्यं देशस्य सर्वोच्च नागरिक पुरस्कारेण भारतरत्नेन सम्मानितवती। केन्द्रीय वित्तमन्त्रिणा निर्मला सीतारमणेन उक्तं यत् भारतस्य सकल देशीय उत्पादवृद्धिः प्रसक्त वित्तवर्षस्य चतुर्थे त्रैमासिके 8% अधिका इति अनुमानितम्। अपि च आईपीएल क्रिकेट क्रीडायां अहमदाबाद नगरे सनराइजर्स हैदराबाद दलेन गुजरात टाइटन्स दलस्य विरुद्धं 63-100 धावनांकानां लक्ष्यं प्रदत्तं। दिल्ली कैपिटल्स तथा चेन्नई सुपर किंग्स इत्यनयोः मध्ये द्वितीया क्रीडा सायं 7:30 विशाखापत्तनम नगरे भविष्यति। भाजपा दलस्य वरिष्ठ नेत्रा प्रधानमन्त्रिणा श्री नरेन्द्र मोदिना अद्य उत्तर प्रदेशस्य मेरठ जनपदे भाजपा दलस्य लोकसभा निर्वाचन प्रचारस्य आरम्भः कृतः। जनसभां संबोधयन् श्री मोदी अवदत् यत् ऐषमः लोकसभा निर्वाचनं केवलं सर्वकारस्य निर्माणार्थं न अपितु भारतं विकसितं राष्ट्रं विश्वस्य तृतीयं बृहत्तमं आर्थिक महाशक्तिं च कर्तुं भवति। सः अवदत् यत् यदा भारतं विश्वस्य 11वा बृहत्तमा अर्थव्यवस्था आसीत् तदा भारतस्य दारिद्र्यस्य मानम् उच्छ्रितम् आसीत्। प्रधानमन्त्रिणा उक्तं यत् यदा भारतं पञ्चमा बृहत्तमा अर्थव्यवस्था अभवत् तदा 25 कोटिभ्यः अपि अधिकाः जनाः सफलतया दारिद्र्यात् बहिरागताः। सः अवदत् यदा भारतं तृतीय बृहत्तम अर्थव्यवस्था भविष्यति तदा दारिद्र्यस्य उन्मूलनं भविष्यति तथा च मध्यमवर्गः भारतस्य विकासाय ईंधनं प्रदास्यति। प्रधानमन्त्रिणा उक्तं यत् भारतं विनिर्माणक्षेत्रे अपूर्वं निवेशं कुर्वन्नस्ति तथा च देशस्य युवानः प्रत्येकस्मिन् क्षेत्रे अनेकान् अवसरान् प्राप्नुवन्ति। श्री मोदी अवदत् अद्य भारतस्य विश्वसनीयता सम्पूर्णे विश्वे उन्नतस्थाने अस्ति तथा च समग्रं विश्वं भारतं प्रति पश्यति। सः अवदत् यत् विगत दशवर्षेषु अयोध्यायां राममन्दिरस्य निर्माणं वन रैंक वन पेंशन योजना ट्रिपल तलाक इत्यस्य अभ्यासस्य विरुद्धं कठोरविधिः लोकसभायां विधानसभायाञ्च महिलानां कृते 33% आरक्षणं सदृशानि असाधारण कार्याणि कृतानि वर्तन्ते। भारतीय राष्ट्रिय विकास समावेशी संघटनम् इंडिया इति विपक्षी दल संघेन अद्य दिल्ल्याः रामलीला प्रांगणे दिल्ल्याः उपमुख्यमन्त्रिणः अरविन्द केजरीवालस्य निगडनेन सहैव विविधान् विषयान् उद्दिश्य एका महाजनसभा आयोजिता। जनसभां संबोधयता कांग्रेस दलस्य अध्यक्षेण मल्लिकार्जुन खड्गे इत्यनेन भणितं यत् केन्द्र प्रशासनेन विपक्षिदलानां पीडनाय संस्थानां दुरुपयोगः क्रियते। सः उक्तवान् यत् इदं निर्वाचनं लोकतन्त्रस्य संविधानस्य च रक्षणार्थमस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः पूर्व उप प्रधानमन्त्रिणं एलके अडवाणी वर्यं देशस्य सर्वोच्च नागरिक पुरस्कारेण भारतरत्नेन सम्मानितवती। राष्ट्रपतिना अयं पुरस्कारः अद्य नवदिल्ल्याः अडवाणी महोदयस्य निवासस्थाने एव प्रदत्तः। अस्मिन् अवसरे उपराष्ट्रपतिः जगदीप धनकड़ः प्रधानमन्त्री श्री नरेन्द्र मोदी उपराष्ट्रपतिः एम वेंकैया पूर्व उपराष्ट्रपतिः एम वेंकैया नायडू रक्षामन्त्री राजनाथ सिंहः गृहमन्त्री अमित शाहः अथ अडवाणी वर्यस्य परिवार सदस्याः अपि उपस्थिताः आसन्। अन्तर्जालीय सन्देशे राष्ट्रपतिना उक्तं यत् भारतीय राजनीतेः शिखर व्यक्तित्वं लालकृष्ण अडवाणी 7 दशकाधिकं यावत् दृढसंकल्पेन असाधारण कौशलेन च देशस्य सेवां कृतवान्। 27-1900 वर्षे कराची नगरे जन्म प्राप्य 47-1900 वर्षे देशविभजन समये श्री अडवाणी भारतमागतः। सः सांस्कृतिक राष्ट्रवादस्य लक्ष्यं स्थापयित्वा दशकानि यावत् परिश्रमं कृतवान् येन देशस्य सामाजिक राजनैतिक परिदृश्ये परिवर्तनं जातम् राष्ट्रपतिः अवदत् यत् यदा आपत्कालः देशस्य लोकतन्त्राय संकटम् अयच्छत् तदा श्री अड्वाणी अदम्यसाहसेन देशं निरंकुशबलात् उद्धर्तुं साहाय्यं कृतवान् राष्ट्रपतिः अवदत् यत् श्री अड्वाणी स्वातन्त्र्यानन्तरं तेषु नेतृषु अन्यतमः अस्ति यः राष्ट्रियहितम् अग्रे स्थापयित्वा देशं विकासमार्गे नीतवान् राष्ट्रपतिना उक्तं यत् अड्वाणी महोदयस्य उपलब्धयः देशस्य निहित प्रतिभायाः समावेशीय परम्पराणाञ्च उत्तमः अभिव्यक्तिः अस्ति संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूस् आन् एआईआर् चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति केन्द्रीयवित्तमन्त्रिणा निर्मलासीतारमणेन उक्तं यत् भारतस्य सकलदेशीय उत्पादवृद्धिः प्रसक्तवित्तवर्षस्य चतुर्थे त्रैमासिके 8% अधिका इति अनुमानितम् मुम्बईनगरे निवेशसम्मेलनं सम्बोधयन्ती सा अवदत् यत् महार्घप्रबन्धनस्य स्थूल आर्थिकस्थिरतायाः प्रभावात् 23-24 वित्तीयवर्षस्य कृते अर्थव्यवस्थायाः वृद्धिः समानमित्या भविष्यति इति अपेक्षा अस्ति वित्तमन्त्री उक्तवती यत् भारतम् एशियाखण्डस्य तृतीया बृहत्तमा अर्थव्यवस्था अस्ति अक्टोबर मासतः डिसेम्बर मासपर्यन्तम् 8.4% वृद्धिः अभवत् यत् पूर्वत्रैमासिके 7.6% वृद्धिः अभवत् सा अवदत् यत् तृतीयत्रैमासिके 8.4% वृद्धिपरिमाणम् अनुसरद्भिः विभिन्नाभिः आर्थिकसंस्थाभिः भारतस्य सकलदेशीय उत्पादवृद्धिपरिमाणस्य अनुमानं वर्धितम् अद्यतनतमम् अनुमानं वैश्विकवित्तीयसंस्थायाः गोल्डमैन साक्सस्य अस्ति यया संस्थया भारतीय अर्थव्यवस्थायाः कृते ऐषमः वित्तीयवर्षस्य आर्थिकवृद्धिपरिमाणस्य अनुमानं स्वपूर्वानुमानात् 10 वर्धयित्वा 6.6% कृतमस्ति अद्य सम्पूर्णे विश्वे ईस्टर उत्सवः महता उत्साहेन आचर्यते प्रभु येषु शूले स्थापितस्सन् अस्मिन् दिने तस्य पुनरुत्थानम् अभवत् इति विश्वासः अस्ति राष्ट्रपतिः द्रौपदी मुर्मुः भारतस्य विदेशस्य च नागरिकेभ्यः विशेषतया ईसाईसमुदायस्य कृते ईस्टर दिनस्य शुभकामनां दत्तवती सा स्वसन्देशे अवदत् यत् एषः उत्सवः प्रेमकरुणयोः प्रतीकः अस्ति राष्ट्रपतिः जगदीप धनकडः अपि जनेभ्यः ईस्टर उत्सवस्य शुभकामनाम् अयच्छत् स्वस्य अभिवादन सन्देशे सः अवदत् यत् ईस्टर उत्सवः प्रेम करुणा क्षमानां पुनस्मारणं कारयति प्रधानमन्त्री नरेन्द्र मोदी अपि देशवासिभ्यः ईस्टर शुभकामनां दत्तवान् अन्तर्जालीय सन्देशे श्रीमोदी आशां प्रकटितवान् यत् एषः विशेषः अवसरः नवीकरणस्य आशावादस्य च सन्देशं प्रसारयिष्यति सीबीआई इति केन्द्रीय अन्वेषण विभागः श्वः अन्वेषण विभागस्य उत्थानदिवसस्य अवसरे 20तमस्य डीपी कोहली स्मृति व्याख्यानस्य आयोजनं करिष्यति भारतस्य मुख्य न्यायाधीशः डीवाई चन्द्रचूडः श्वः नवदिल्ली नगरस्य भारतमण्डपे डीपी कोहली स्मृति व्याख्यानं प्रदास्यति अस्मिन् वर्षे व्याख्यानस्य विषयः आपराधिक न्यायस्य उन्नयनार्थं प्रौद्योगिक्याः उपयोगः इति जम्मूकश्मीरे आरम्भमाणां पूजनीयाम् अमरनाथ यात्राम् अभिलक्ष्य सर्वाः सज्जताः द्रुतगत्या प्रचाल्यन्ते अस्यां सज्जतायाम् आपदा प्रबन्धने रक्षणोपाये च विशेषबलं दीयते आकाशवाण्याः जम्मूस्थस्य वार्ताहरेण प्रतिपादितं यत् केन्द्रशासित प्रदेशस्य शैलारोही रक्षादलं साम्बा जनपदस्य क्षेत्रेषु तीर्थाटनं सरलीकर्तुं नियोजितम् अस्ति अवधेयास्पदम् अस्ति यत् अस्याः आराधनीय यात्रायाः शुभारम्भः जून मासस्य अन्तिमदिवसात् भविष्यति इति अनुमीयते आईपीएल क्रिकेट क्रीडायाम् अहमदाबाद नगरे सनराइजर्स हैदराबाद दलेन गुजरात टाइटन्स दलस्य विरुद्धं 63-100 धावनांकानां लक्ष्यं प्रदत्तम् दिल्ली कैपिटल्स तथा चेन्नई सुपर किंग्स इत्यनयोः मध्ये द्वितीया क्रीडा सायं 7:30 विशाखापत्तनम नगरे आरप्स्यते इति वार्ताः